एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। लोकतान्त्रिक वाम गठबन्धनेन परश्वः सम्पत्स्यमाने प्रतिनिधि सभायाः प्रदेश सभानां च सदस्यानां निर्वाचने संविधानस्य रक्षायै स्थिरतायै समृद्धये च मतदाने सहभागितायै अनुरोधं वर्तते। गठबन्धनस्य दलानां शीर्षनेतृभिः ह्यः संयुक्तानुरोधपत्रं प्रकाश्य पञ्चसु वर्षेषु सम्पद्यमानं जननिर्वाचनं राष्ट्रिय महोत्सवस्य रूपेण मत्वा मतदाने सहभागितायै आहूतमस्ति। अनुरोधपत्रे संविधानस्य भावनानुरूपं लोकतान्त्रिक गणतन्त्रस्य संस्थागत विकासाय लोकतान्त्रिक वाम गठबन्धनम् क्रियाशीलमस्तीति हेतोः एतस्मै अभियानाय नैरन्तर्यम् प्रदाय सकल मतदातृन् मतदाने सहभागिनः कारयितुम् दलानाम् नेतारः कार्यकर्तारः शुभेच्छुकाश्च अनुरुद्धाः सन्ति। प्रधानमन्त्री शेरबहादुर देउवा वदति प्रतिनिधि सभायाः प्रदेश सभानां च सदस्यानां निर्वाचनस्य सफलीकरणं सर्वेषां दायित्वं वर्तते। ह्य श्रव्य दृश्य सन्देशं प्रकाश्य प्रधानमन्त्री देउवा राष्ट्रं निर्वाचनस्य अन्तिम चरणे स्थिति चर्चयन् अवोचत् लोकतान्त्रिक शासन व्यवस्थायां निर्वाचनं लोकतन्त्रस्य आत्मा वर्तते। असौ मतदानं लोकतन्त्रस्य उत्सवस्य रूपेण मन्तुं सन्देशस्य माध्यमेन सर्वान् अन्वरुणत्। गृहमन्त्री बालकृष्ण खाँड राष्ट्रिय शान्ति सुरक्षायोः अवस्थायाः सुदृढतायाः हेतोः सविश्वासं मतदानं कर्तुम् अनुरुणद्धि। यो राष्ट्रिय समाचार समित्या सह विहितायं वार्तायं गृहमन्त्री खाँड राष्ट्रस्य चतुर्णामेव सुरक्षा निकायानां मध्ये समन्वय स्थिति ज्ञापयन् अवासत हिमालय पर्वत तराई भागानां निर्वाचन क्षेत्राणि जनपदानां संवेदनशीलतां च विलोक्य सुरक्षा व्यवस्था अवलम्बिता वर्तते। गृहमन्त्री खाँड अवासत मतदातृणाम् प्रत्याशिनाम् कर्मचारिणाम् निर्वाचने संलग्नानाम् सर्वासाम् व्यक्तिनाम् मतपत्राणाम् च सुरक्षणम् राज्यस्य कर्तव्यमस्तीति विषयः वर्तमान सर्वकारेण ध्यानाकृष्टो वर्तते। एतदनुसारेणैव नागरिकाणाम् मतदानानन्तरम् मतमञ्जुषाणाम् सर्वासाम् अवस्थानाम् च सुरक्षा सबलीकृता अस्ति। परश्व मार्गशीर्ष मासस्य चतुर्थे दिवसे रविवासरे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य प्रयोजनाय गतरात्रौ द्वादशवादनतः स्थिर समयः प्रारब्धो वर्तते। निर्वाचनायोगेन गतरात्रौ द्वादशवादने राजनीतिक दलानां प्रत्याशिनाञ्च कृते निर्वाचनस्य प्रचार प्रसारयोः कृते प्रदत्त समयः समाप्तोऽस्ति। स्थिर समयस्य प्रारभणमनु निर्वाचनस्य प्रचार प्रसारयोः कथं विधोऽपि क्रियाकलापः कर्तुं न शक्यते इति ज्ञापितमस्ति। निर्वाचनायोगे ह्य आयोजिते पत्रकार सम्मेलने प्रमुख निर्वाचनायुक्तः दिनेश कुमार थपलिया स्थिर समयावधौ अन्तर्क्रिया सभा सम्मेलनम् अन्येन केनापि माध्यमेन निर्वाचनस्य प्रचार प्रसार वा कर्तुं राजनीतिक दलानां प्रत्याशिनाञ्च पक्षे मतं याचितुं च न शक्यन्ते इति ज्ञापितमस्ति। शक्यन्ते इति अज्ञापयत। निर्वाचनायोगेन सामाजिक सञ्जालेभ्यः अनलाइन प्रणाल्याश्च विहितानि विज्ञापनानि निर्वाचनस्य प्रचार प्रसारयोः सामग्र्यश्च स्थिर समयस्य प्रारभणात् पूर्वमेव अपाकर्तुं सर्वाणि राजनीतिक दलानि प्रत्याशिनश्च अनुरुद्धाः सन्ति। एवमेव सामाजिक सञ्जालेभ्यः अनलाइन प्रणाल्याश्च प्रचार प्रसारयोः सामग्र्यः दलैः प्रत्याशिभिश्च अपाकृताः सन्ति नवेति विषयस्य अनुगमनाय विज्ञापन समितिः निर्दिष्टास्तीति प्रमुख निर्वाचन आयुक्तः थपलिया असूचयत। आयोगेन कथं विदमपि त्रास सर्जनं कृत्वा कस्मिंश्चित् अनुचित प्रभावे निपात्य निर्वाचनस्य निष्पक्षतायं स्वतन्त्रतायञ्च प्रभाव सर्जनस्य कार्येषु कृतेषु सत्सु तादृशाः व्यक्तिः तत्कालं विधेरनुसारेण दण्डयितुं सम्बद्ध निकायः निर्दिष्टश्च अस्तीति आयोगेन ज्ञापितं वर्तते। एवमेव आयोगेन यथाशीघ्रं निर्वाचनस्य परिणामस्य सार्वजनिकरणस्य उद्देश्येन सर्वासां मतमञ्जुषाणां मतगणनास्थले प्रापणस्य अनुपदमेव मतगणनायाः प्रारभणस्य व्यवस्थाभिहितास्तीति ज्ञापितं वर्तते। आयोगेन मतदान सम्पादनस्य दिनत्रयाभ्यन्तरे प्रत्यक्ष पक्षस्य मतपरिणामस्य सार्वजनिकरणस्य लक्ष्यं निर्धारितमस्तीति प्रमुखायुक्तः थपलिया असूचयत। एवमेव प्रत्यक्ष पक्षस्य मतगणनायाः समाप्तेः पञ्चानां दिनानाम् अभ्यन्तरे समानुपातिक पक्षस्य मतगणनां समाप्य शैव मासस्य द्वाविंशस्य दिवसस्य अभ्यन्तरे निर्वाचनस्य परिणामेन सम्बद्धस्य प्रतिवेदनस्य राष्ट्रपतेः समक्षं प्रस्तुतीकरणत्वेन पूर्वकार्यं विहितम् अस्ति इति प्रमुखायुक्तः थपलिया अज्ञापयत्। पत्रकार सम्मेलने प्रमुख निर्वाचन आयुक्त थपलिया परश्व मारशीर्ष मासस्य चतुर्थे दिवसे रविवासरे आराष्टम एकस्मिन्नेव चरणे सम्पत्स्यमानस्य निर्वाचनस्य पूर्व कार्याणि प्रायः प्रपूरितानि सन्तीति अज्ञापयत। स्वयावत् सर्वेषां मतदान केन्द्राणां निर्माण कार्यं सम्पत्स्यते इति आयोगेन ज्ञापितमस्ति। संचार माध्यमेभ्य सामाजिक सञ्जालेभ्यश्च मतदाता शिक्षाया कार्यक्रमस्य सञ्चालनात् विगत कालस्यैव एतद्वारम् आडम्बरो न विहित इति प्रमुखायुक्त थपलिया अवोचत। अस्यैव मार्गशीर्ष मासस्य तृतीयं दिवसं यावत् प्राप्ताष्टदश वर्ष वयस्कैः मतदातृभिः निर्वाचने मतदानं कर्तुं शक्यते। निर्वाचने एककोटि उनाशीतिः लक्षाणि अशीतिः सहस्राणि पञ्चशतं सप्ततिश्च मतदातारो निर्धारिताः सन्ति। मतदानाय दश सहस्रेषु द्वानवत्यधिकाष्टशते च मतदानस्थलेषु द्वाविंशतिः सहस्राणि सप्तविंशत्यधिक शतद्वयं च मतदान केन्द्राणि निर्धारितानि वर्तन्ते। एवमेव एकचत्वारिंशदधिक शते अस्थायी मतदान केन्द्रेषु आत्मनः अनुकूल स्थलेषु स्वकार्यरत मतदान केन्द्रेषु वा आसन्न चतुर्लक्षैः पञ्चाशता सहस्रैश्च अस्थायी मतदातृभिः प्रतिनिधिसभायाः समानुपातिक निर्वाचन प्रणाल्याः पक्षे मतदानं विधास्यते इति आयोगेन ज्ञापितं वर्तते। काष्ठमण्डप जनपद प्रशासन कार्यालयेन गतदिवसतो जनपदे मदिरायाः विक्रय वितरणे नयनानयने सेवनं च निषिद्धानि सन्ति। प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनाय गतरात्रौ द्वादशवादनतो मतदान कार्यस्य असमाप्तिं यावत् मतगणनास्थलं परितः गणनायाः असम्पन्नतां यावच्च मदिरायाः नयनानयने विक्रय वितरणे सेवनं च निषिद्धानि सन्तीति सहायक प्रमुख जनपदाधिकारी सुप्रभा खनाल ढुंगेलः अज्ञापयत्। सहायक प्रमुख जनपदाधिकारिणा ढुंगेलेन प्रकाशितायं विज्ञप्तौ सूचनायं अपरिपालितायं सत्यं विध्यनुसारेण दण्डनं भविष्यतीति प्रत्यादिष्टं वर्तते। जापान देशस्य विदेश राज्य मन्त्री सुनसुके ताकेई प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य पर्यवेक्षणाय नेपालम् आगच्छन्नस्ति। द्विदिवसीयस्य नेपालावासनस्य क्रमे अस्य नेपालस्य उच्चपदस्थाभिः व्यक्तिभिः सह शिष्टाचार मेलनस्य कार्यक्रमो वर्तते। रूस देशेन युक्रेन देशस्य भौतिक पूर्वाधारेषु भीषणं विमानाक्रमणं विहितं वर्तते। विमानाक्रमणेन युक्रेन देशस्य ऊर्जा संरचनासु आवासीय भवनेषु औद्योगिक केन्द्रेषु च व्यापक क्षतिर्भूतास्ति इति समाचाराः।